प्रधार्याजः प्रधरन्नपि एजस्थादारे वक्रतुमतारथस्य अधच्च पाद उत्तमेत्यर्थम् परातरम् सुनिरृतिर्जिहेताम् सामन्नराजनिधिमन्वन्नङ्करा महे सुपुरधश्रवांसे तानो विश्वानि चरितामत्त्वपरातरम् सुनिरृतिर्जिहेताम् अभीष्वा अर्यः पौंस्यैर्भवे पद्योर्न भूमिम् गिरजो नाज्रान् तानो विश्वानि चरिता जगेतपरातरम् सुनिरृतिर्जिहेताम् मोषुडः सोमभृत्यवे परादाः पश्ये मनुसौर्यमुच्चरन्तम् युभिरहितो जरिवासो नो अस्तु परातरम् सुनिरृतिर्जिहेताम् असुनेते मनो अस्मासुधारय जीवातवे सुप्रतिरान आजोः रारन्दिनः सौर्यस्य सन्दृशघृते नत्वम् दन्वम् वर्धयस्व असुनेते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् योक्पश्येम सौर्यमुच्चरन्तमनुमदय मृळयान स्वस्ति पुनर्नो असुम् पृथिवेदधातु पुनर्द्योर्देवे पुनरन्तरिक्षम् पुनर्नः सोमस्तन्वन् ददातु पुनः पोषापथ्या आया स्वस्तिः शम्रादसे सुबन्धवे जह्वे रतस्य मातरा भरतामपजद्रपोर्द्योः पृथिविक्षमारपोमोषुते किञ्चनाममत अवद्वके अवत्रिकादिवश्चरन्ति भेषजा क्षमा च रिष्णे एककम् भरतामपयत्र भोद्यौः पृथिवि क्षमारभोमोषते किञ्चनाममत समिन्द्रेण जगाम नड्वा हञ्ज आपहदुषेनराण्या अनाः भरतामपयत्र भोद्यौः पृथिवि क्षमारभोमोषते किञ्चनाममत